तस्यावास्वधृष्ण्यार्चामरुद्धर्ऋक्वभिः ये अद्रोघमानुष्वदाम् स्रवो मदन्ति यज्ञियाः ते हि स्थिरस्य सवसस्सखाः यः सन्ति धृष्णया ते यामन्ना दृढद्विनस्मनापान्ति सस्वतः ते स्पन्दासो नोक्षणो तिष्कन्दन्ति सर्वरीः मरुतामधामहो दिविक्षमा च मन्महे मरुत्सु बोदधीमहि स्तोमम् यज्ञम् च धृष्णुया विश्वे ये मानुषा युगापान्ति मर्त्यम् वृषः अर्हन्तो ये सुदानवो नरो असामि सवसः प्रयज्ञम् यज्ञेभ्यो दिवो अच्च मरुद्भ्यः आरुग्मैरायुधानर ऋष्वारिष्टीरसृक्षत अन्वेनाः विद्युतो मरुतो जज्जदीरिव भानुरत्तत्मना दिवः ये वा वृधम् तपार्थी वायपुरावन्तरिक्षा वृजने वा नदीनाम् सधस्ते वा महो दिवः शर्धो मारुतमुच्छम् तसत्यसर्वसमृग्भसम् उदस्मते शुभे नरप्रस्पन्द्रायुजदत्मना उदस्मते परुष्ण्यामूर्णा वसरसुन्ध्यवाः उदभव्यारथा नामद्रिम् भिन्दन्त्योजसा आपथयो विपथयोन्दस्पथा अनुपथाः एतेभिर्मह्यम् नामभिर्यज्ञम् विष्टारवोहते अधानरोऽन्योहते धानियुतवोहते अधापारावता इति चित्रारूपाणि दर्श्या छन्दस्तुभः कुभन्यभवुत्समाकीरिणो ऋतुः ते मे केचिन्नदाय बहूमा आसन् कृषिद्विषे यदृष्वारिष्टिविद्युतः कवयः सन्ति वेधसाः तमृषे मारुतङ्गनम् नमस्य रमया गिरा अच्छर्षे मारुतङ्गनम् दारामित्रम् न योषणा दिवो वा धृष्णवमोजसास्तुता दीभिरीषण्यत नूमन् बाणयेषाम् देवाङ्गच्छान भक्षणा दाना स चेत सूरिभिर्यावश्रुतेभिरञ्जिभिः प्रवेमे बन्धेषे गाम् वोचन्त सूरयः पृश्निम् वोचन्त मातरम् अधा पितरविष्णिनम् रुद्रम् वोचन्त सिक्वसः सप्तमे सप्तसाकिनयेकमेका सदा ददुः यमुना जामसि श्रुतमुद्राधो गव्यम् मृजे निराधो अस्व्यम् मृजे